ॐ ब्रह्मात्मन्वदसृजदा तदकामयता समात्मना बध्येयेति आत्मन्नात्मन्नित्या मन्त्रयता तस्मै दशमगुम् भूतः प्रत्यशृणोत् स दशहूतो भवत् दशहूतो हवैनामैषः तम् वा एतम् दशहूतगुम् सन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयता तस्मै सप्तमगुम् होतः प्रत्यशृणोत् स सप्तहूतो भवत् सप्तहूतो हवैनामैषः तम् वा एतम् सप्तहूतगुम् सन्तम् सप्तहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयता तस्मै षष्टमगुम् सूतः प्रत्यशृणोत् षड्भूतो भवत् षड्भूतो हवैनामैषः तम् वा एतम् षड्भूतगुम् सन्तम् षड्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयता तस्मै पञ्चमगुम् होतः प्रत्यशृणोत् स पञ्चहूतो भवत् पञ्चहूतो हवैनामैषः तम् वा एतम् पञ्चहूतगुम् सन्तम् पञ्चहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयता तस्मै चतुर्थगुम् होत प्रत्यशृणोत् स चतुर्होतो भवत् चतुर्होतो हवेनामैषः तम् वा एतम् चतुर्होतगुम् सन्तम् चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवीद् त्वम् वै मेनेदिष्टगुम् होतः प्रत्यश्रौहि त्वयैनानाख्यातारहिते तस्मान्नुहैनागुम् चतुर्होतारमित्याचक्षते तस्माश्रुश्रूषु पुत्रा नागुम् हृद्यतमः नेदिष्टो हृद्यतमहन्नेदिष्टो ब्रह्मणो भवति य एवम् वेदा आत्मनेनामः